एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति संविधानस्य अनुसारेण अवशिष्ट कार्याणाम् विधीनाम् निर्माण कार्यम् सर्वकारेण प्राथमिकतया अग्रे वर्धाप्यमानम् वर्तते। राष्ट्रिय सभाया गतदिवसीयोपवेशे संविधानस्य अनुसारेण अवशिष्ट निर्माणानाम् विधीनामेतद् वैक्रमाब्दस्य अध्ययन प्रतिवेदनस्य सम्बन्धे उत्थापितान् प्रश्नान् उत्तरयन् प्रधानमन्त्री प्रचण्डः अवोचत् सर्वकारेण संविधान क्रियान्वयन कार्ययोजनाम् निर्माय विधिनाम् निर्माण कार्यम् सप्राथमिकतम् अग्रे वर्धापितम् वर्तते। प्रधानमन्त्री प्रचण्डः नेपालस्य संविधानस्य क्रियान्वयनानन्तरम् नवीनाः संशोधिताश्चेति आहत्य एकनवत्यधिक शतम् अधिनियमाः निर्मिताः सन्तीति अज्ञापयत्। प्रधानमन्त्री प्रचण्डः संविधानस्य क्रियान्वयनेन सम्बद्धानि संघीय सर्वकारीय सेवा विद्यालय शिक्षा प्रवृत्तिनि महत्वपूर्णानि विधेयकानि शीघ्रं संघीय संसदि प्रस्तोतुं सर्वकारेण प्रक्रिया अग्रेसारिता स्थिति प्रावोचत। प्रधानमन्त्री प्रचण्डः प्रतिवेदने दर्शिता नागरिकता सम्बद्ध विधेय सम्बन्धे प्रमाणीकृता गत विक्रम वर्षीया नेपाल नागरिकता प्रथम संशोधनाधिनियम क्रियान्वितो स्थिति चर्चयन् अकथयत्। नागरिकता प्राप्ति सम्बद्धस्य सांविधानिकाधिकारस्य प्रचलनाय मार्ग अनावृतो वर्तते। प्रधानमन्त्री प्रचण्ड आवासतः संविधानस्य क्रियान्वयनाय आवश्यक विधिनाम् निर्माणपूर्वकम् एतेषाम् प्रभावकारी क्रियान्वयनस्य माध्यमेन अशिष्ट नागरिकान् सुशासनम् विकासम् समृद्धिम् च अनुभावयितुम् सर्वकारस्य संसद सम्बद्ध निकायानाम् च सर्वेषाम् भूमिका महत्वपूर्णा भवति। उपवेशे विधायन व्यवस्थापन समितेः सभापतिना जयन्ती देवी राई इत्यनया संविधानस्य अनुसारेण अवशिष्ट निर्माणानाम् विधिनाम् एतद् वैक्रमाब्दम् अध्ययन प्रतिवेदनम् विमर्शनाय सभायाम् प्रस्तुतम् आसीत्। विमर्शने सहभागिनः सांसदाः संविधानेन प्रदत्तानाम् दलिता दिवासी मधेसी महिला प्रवृत्तिवर्गाणाम् अधिकाराणाम् सुनिश्चयनाय अधिनियमाः न निर्मिताः इति ब्रुवन्तः। प्रतिवेदनेन दर्शितानाम् एकाशीत्यधिक शतस्य विधिनाम् निर्माणाय सर्वकारेण तत्परता दर्शनीय बलम् प्रादुः। राष्ट्रिय सभायाः अपरोपवेशः शिव भाद्रस्य चतुर्विंशे दिवसे रविवासरे पूर्वाह्नस्य एकादश वादने वस्ता। प्रतिनिधि सभाया ह्यस्तनोपवेशेन कतिचिन नेपालादि नियमान् संशोधयितुम् निर्मितम् एतद् विक्रम वर्षीयम् विधेयकम् विचार्यतामिति निगद्य प्रस्तुत प्रस्ताव सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे सभामुख देवराज घिमिरे क्रिकेट क्रीडा प्रतियोगितायाः ऐशयिक श्रृंखलायाम् सहभागिने नेपाली क्रीडक समूहाय प्रतिनिधि सभायाः स्वस्य च पक्षतः सफलतायाः शुभकामनाम् प्रदत्तवान् आसीत्। प्रतिनिधि सभाया ह्यस्तनोपवेशस्य प्रश्नोत्तर कार्यक्रमे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् विधि न्याय संसदीय विषय मन्त्री धनराज गुरूङ न्यायपालिकायाः पञ्चवर्षीय रणनीतिक योजनया जनतायै सहजतया शीघ्र प्रक्रियया च न्याय निरूपणस्य कार्याय उच्च प्राथमिकतायाम् प्रदत्तायाम् सत्यमपि न्यायिक प्रकरणानाम् श्रवणस्य कार्याय न्यायालयैः विशेष प्राथमिकताम् प्रदाय कार्यम् विधीयमानमस्तीति अवोचत। उपवेशे सांसदानाम् प्रश्नान् उत्तरयन् शिक्षा विज्ञान प्रविधि मन्त्री अशोक कुमार राई सर्वकारेण शिक्षा स्वास्थ्य विकास निर्माण सेवा प्रवाहेषु सूचना प्रविधेः प्रयोगस्य विस्तारणस्य नव प्रवर्तनाविष्कार कोषस्य स्थापनस्य च नीति आनीतास्तीति अज्ञापयत। विश्वविद्यालयानाम् नूतन विधेयकस्य निर्माणस्य प्रक्रिया अग्रे वर्धितास्तीति चर्चयन् शिक्षा मन्त्री राई अस्य विधेयकस्य संसदि प्रस्तुत्यै सर्वकारेण पूर्वकार्यम् विधीयमानमस्तीति असूचयत्। तत्पूर्वम् उपवेशस्य विशेष समये सांसदै दैनिकोपभोग्य वस्तुनाम् अत्यधिक मर्गता वर्धिता सत्यपि सर्वकारेण औदासीन्येन स्थितम् मूल्यवृद्धेः नियन्त्रणाय स्तरत्रयस्यैव सर्वकारैः ध्यानम् न प्रदत्तम् वैदेशिक वृत्त्युपार्जनाय विदेशम् गतैः नेपालीभिः विमानस्थले अपमानः सुडभ्यो वर्तते। वैदेशिक वृत्त्युपार्जनाय गतानाम् यूनाम् समस्यानाम् सम्बोधनाय सर्वकारेण ध्यानम् प्रदेयम् चेति विषयेषु सर्वकारस्य ध्यानम् आकर्षयन् तथैव उपवेशस्य आकस्मिक समये सांसदाः देशस्य विभिन्न भागेषु झञ्झावात जलविप्लव भूस्खलनैः प्रापिताया ख्यातेः पीडितानाम् जनानाम् उद्धार महायोगयोः मार्गावरुद्धतायाः सीमा प्रवेश बिन्दूनां सुरक्षायाश्च सामयिक विषयेषु सर्वकारस्य ध्यानमाकर्षयन् सांसदाः कर्णाली राजमार्गे दुरापन्नाभ्यो दुर्घटनाभ्य शतशः जनैः प्राणः हापनीयोस्तीति विषये सर्वकारस्य ध्यानमाकर्षयन्त समये एव एतन्मार्गस्य स्तरोन्नत्यै दुर्घटनानां न्यूनीकरणाय च प्रयासार्थम् अन्वरुन्धन् सांसदाः सीमाक्षेत्रे सीमस्तम्भाः विलुप्यमानाः सन्ति जलविप्लवेन सीमस्तम्भेषु प्रवाहितेषु सत्स्वपि समय एव सम्बद्ध पक्षस्य ध्यानाकर्षणं सम्भूतं नास्ति इति निगद्य सर्वकारेण सीमस्तम्भानां संरक्षणाय गभीरेण भाव्यमिति बलं प्रादुः राष्ट्रपतिना रामचन्द्र पौडेलेन सह प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड ह्य अमिलत शीतल निवास स्थिते राष्ट्रपति भवने सम्पन्ने तस्मिन् मेलने प्रधानमन्त्री प्रचण्ड अमेरिका देशस्य न्यूयोर्क नगरे सम्पत्स्यमानायां संयुक्त राष्ट्र संघस्य आगामिन्यां महासभायां स्वस्य सहभागितायाः चीन भ्रमणस्य च विषययो अज्ञापयतीति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः सूचयत तदवसरे अनयोर्मध्ये देशस्य अन्यान् सामयिक विषयान् च आदृत्य विमृष्टमिति ज्ञापितं वर्तते प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड वदति द्वन्द्वस्य क्रमे पीडिताभ्यो व्यक्तिभ्य क्षतिपूर्तिं प्रदाय एतासां समाजे पुनर्मेलनाय सर्वकारः प्रतिबद्धो वर्तते एडवोकेसी फोरम नाम्ना पक्ष समर्थन मञ्चेन न्यायाय अन्ताराष्ट्रिय आयोगेन च ह्य काष्ठमण्डपे आयोजितं नेपाले संक्रमणकालिका न्याय प्रक्रिया सम्बद्धं विमर्शन कार्यक्रमं सम्बोधयन् प्रधानमन्त्री प्रचण्ड गभीर मानवाधिकारोल्लंघनस्य दोषिणो न्यायस्य परिधौ नियन्ते एवेति प्रतिबद्धताम् अभिव्यनक सर्वोच्च न्यायालये कोशी प्रदेशस्य मुख्यमन्त्रिणा उद्धव थापा विधेन प्रदेशसभातो गृहीतस्य विश्वासस्य मतस्य विरूद्धे पञ्जीकारितस्य आदेशाभियाचन निवेदनस्य श्रवणं ह्य प्रारब्धम् ह्य समयाभावस्य कारणेन विलोकनस्य क्रमे विद्यमानं निवेदनमिदम् आदृत्य अद्य पुनः श्रवणं विधीयते न्यायाधीशानां सपना मल्ल प्रधान कुमार चुडाल नहकुल सुवेदीनां न्यायपीठे श्रवणं प्रारब्धम् सदपि ह्य तस्य असमाप्तेः कारणेन अद्य पुनः श्रवणं विधीयते नेकपा एमाले दलस्य कोशी प्रदेश संसदीय दलस्य नेत्रा हेकमत कुमार कार्किणा प्रदेश प्रमुखं परशुराम खापुमित्याख्यं मुख्यमन्त्रिणं थापाविदं अन्यान् जनांश विपक्षिणो निर्धार्य आदेशाभियाचन निवेदनं पञ्जीकारितम् आसीत् काष्ठमण्डप जनपद प्रशासन कार्यालयेन सदभिप्रायेण सम्पादितानां सर्वकारीय कार्याणां तथा विदेश कार्येषु संलग्नानां राष्ट्रसेवकानां च निरुत्साहनत्वेन सामाजिक सञ्जालेषु व्यक्ताम् अभिव्यक्तिं प्रति ध्यानाकर्षणं सम्भूतमस्तीति ज्ञापितं वर्तते सहायक प्रमुख जनपदाधिकारी खड्गबहादुर श्रेष्ठ यो विज्ञप्तिं प्रकाश्य स्वपदीय दायित्वस्य कर्तव्यस्य च पालनाय संलग्नानां राष्ट्रसेवक कर्मचारिणां कृते कर्तव्य पालन क्रमे बाधावरोधौ न प्रापयितुम् अन्वरुणत सहायक प्रमुखाधिकारिणा श्रेष्ठेन सामाजिक सञ्जालेषु स्वेच्छाचारितया वक्तव्य प्रकाशनं न कर्तुं न कारयितुं च सर्वे अनुरुद्धाः सन्ति।